नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति जुहोत्यादिगणः अजन्तदातवः इति विषयः। जुहोत्यादिगणे वयं जानीमः कर्तरि शप् इति सूत्रेण शपः विधानं, तत्पश्चात् जुहोत्यादिभ्यः श्लुः इत्यनेन प्रत्ययस्य अदर्शनं, तत्र विशेषश्लु इति संज्ञया प्रत्ययस्य अदर्शनं जायते इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति, यतोहि तत् कार्यं निषिद्धं वर्तते न लुमताङ्गस्य इत्यनेन। तर्हि जुहोत्यादिगणे विशेषः कः इति चेत्, जुहोत्यादिगणीयधातोः द्वित्वं भवति श्लौ इति सूत्रेण। यदा द्वित्वं भवति प्रथमभागः भवति अभ्यासः, समग्र द्वित्वानन्तरं समग्रसमुदायस्य अभ्यस्तम् इति संज्ञा वर्तते। तर्हि अभ्यासः इति यः भागः अभ्यासः इति उच्यते तस्य कृते सामान्य अभ्यासकार्याणि विशेष अभ्यासकार्याणि इति द्वयं कार्याणि द्वयं भवन्ति सामान्य अभ्यासकार्ये कार्येषु। तस्मात् पूर्वं द्वित्वं कथं भवति इति तद् ज्ञापयितुं कतिचन सूत्राणि सन्ति। एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य मन्द्राः संयोगादयः इति वस्तुतः त्रीणि सूत्राणि। सामान्यतया एकाचो द्वे प्रथमस्य इत्यनेन धातुः एकाच् चेत् समग्रधातोः द्वित्वं भवति, परन्तु धातुः अजादिः अनेकाच् अस्ति चेत् तदानीम् अजादेर्द्वितीयस्य इत्यनेन द्वितीय एकाच् भागस्य द्वित्वं भवति। अजादिः धातुः अनन्तरं तस्य आदिमवर्णस्य अनन्तरं संयोगः अस्ति चेत् नकारदकाररेपः इति एते वर्णाः संयोगस्य आदौ वर्तन्ते चेत् तदानीं तेषां द्वित्वं न भवति इति त्रीणि सूत्राणि द्वित्वस्य कृते। तत्पश्चात् तत्र अभ्यासस्य विषये सामान्य अभ्यासकार्याणि सन्ति, अस्माभिः सर्वाणि कार्याणि दृष्टानि। तत्र आदौ कस्वः इति सूत्रेण अच्वर्णः अभ्यासे यः अच्वर्णः तस्य ह्रस्वत्वं भवति, हलादिः शेषः इत्यनेन अभ्यासस्य आदिमः वर्णः अवशिष्यते, अन्ये वर्णाः अन्ये हल् वर्णाः लुप्यन्ते, आदिमः हल् वर्णः अवशिष्यते अन्ये हल् वर्णाः लुप्यन्ते इति हलादिः शेषः। तत्पश्चात् शर्पूर्वाः खयः इति सूत्रेण इदं सूत्रं हलादिः शेषः इत्यस्य अपवादभूतं सूत्रम्। यदा खैवर्णः शर्पूर्वः अस्ति, शर्पूर्वकः खैवर्णः अस्ति चेत् तदानीं खैवर्णः एव शिष्यते, अन्ये हल् वर्णाः लुप्यन्ते। तदनन्तरं कुहोश्युः इत्यनेन कवर्गीयवर्णस्य चवर्गीयवर्णादेशः, हकारस्य स्थाने अपि चवर्गीयवर्णादेशः, तत्र स्थाने अन्तरतमः इत्यनेन हकारस्य महाप्राणचकारः आदिष्टः भवति। उरत् इति सूत्रेण अभ्यासे ऋकारः अस्ति चेत् तस्य स्थाने अत् इति आदेशः भवति। ऋकारः इत्युक्ते ऋवर्णः, ह्रस्वः भवतु दीर्घः भवतु, तत्र अत् आदेशः भवति। उरण्ड्रपरः इति कृत्वा तत्र अर् इति आदेशः भवति। तदनन्तरम् अभ्यासे चर्च इति सूत्रेण झष् स्थाने झषादेशः, खै स्थाने चरादेशः भवति इति तत्र अभ्यासे चर्च। इदं सूत्रं तु त्रिपाद्यां वर्तते इति कृत्वा अन्ततो गत्वा अस्य कार्यं भवति। अस्माभिः चर्चितं किमर्थम् इदं सूत्रं त्रिपाद्यम् अस्ति इत्यपि अस्माभिः चर्चितं, केवलम् अनुवृत्त्यर्थमेव तत्र इदं सूत्रं त्रिपाद्यम् अस्ति, चर् इत्यस्य झष् इत्यस्य अनुवृत्त्यर्थम् अस्तु। तत्र यानि उदाहरणानि दत्तानि अहं चिन्तयामि भवन्तः सर्वाणि उदाहरणानि भवन्तः कृतवन्तः स्युः, कोऽपि प्रश्नाः सन्ति चेत् प्रष्टुम् अर्हन्ति, नो चेत् अग्रे गच्छामः। अस्तु, तर्हि इदानीम् अस्माभिः ज्ञायते यत् सर्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति इति आरभ्य वयं पठामः। तत्र सरलभग्नि आरब्धुमिच्छति वा?
विक् अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थे त्रीणि सोपानानि सन्ति. प्रथमं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीयं तिङ्प्रत्ययसिद्धिः. तृतीयं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. यथा वयं जानीमः सार्वधातुकलकारेषु इति यद् लट् लङ् लोट् विधिलिङ् इति सार्वधातुकलकाराः सन्ति, तेषां तिङन्तनिर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथममस्ति विकरणप्रत्ययनिमित्तिकं धातु विकरणप्रत्ययो मेलनं, तत्र यथा सङ्गं गुणकार्यं भवति या न इति, या विशेषकार्यम् अस्ति तत् करणीयं. द्वितीयम् अस्ति तिङ् प्रत्ययसिद्धि. अस्माकं विद्यार्थीम् अनदन्तम् अङ्गम् अस्ति ज्योतादिगणे, तत्र भिन्न तिङ् प्रत्ययसिद्धि सिद्धिः अस्ति अदन्ताङ्गस्य अपेक्षा. तृतीयम् अस्ति तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं, यदा विकर्ण धातु मेलनं भवति तत् अङ्गं, तदनन्तरं तिङ् प्रत्ययस्य मेलनम् इति कार्यं भवति. अधिकतया साध्यसन्धिकार्यं सन्ति वा विशेषकार्याणि इति सन्ति इति करणीयानि करणीया. अग्रे पठामि भगिनि.
आमां कृपया पठतु.
अस्तु. द्वितीयगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि च अपि स्तः. द्वित्वस्य निमित्तं श्लुः, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यास तात् पर अस्ति तिङ् वा कृत् वा भवतु, तर्हि आहत्य ज्योत्यादिगणे कार्यस्य क्रमः एतादृशः. सो ज्योत्यादिगण इति विशिष्ट गणः भवति, कारणकी ज्योत्यादि श्लु अनेन श्लौ इति अने सूत्रेण द्वित्वं भवति. तो इति प्रथमं करणीयम् अङ्गकार्यम् अस्ति, तत् धातु स्वीकृत्य तत् द्वित्वकार्यस्य प्रक्रिया भवति. तदनन्तरं तत् यथा वयं दृष्टवन्तः सामान्यकार्य या विशेषकार्य, इदानीं वयं सामान्य अभ्यासकार्याणि के सन्ति ते वयं जानीमः. शप् विधीयते कर्तरि शप् इत्यनेन. शप् स्थाने श्लु भवति, श्लौ इत्यनेन धातौ द्वित्वं भवति. सामान्य अभ्यासकार्यम् अभ्यस्तोत्तर प्रत्यय अस्य निमित्तं ह्रस्व अलादि शेष कुहोश्च उरत अभ्यासे चर्च. विशेष अभ्यासकार्यं श्लु अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे द्वे भृञ्यामित अर्ति पिपत्योश्च अन्तिमस्ति अङ्गकार्यं तिं च कृत् च निमित्तम्. सो इदानीं यथा वयं जानीमः सार्वधातुकलकारेषु या प्रक्रिया भवति, प्रथमं ल इति लस्य अधकारः भवति, विवक्षा लट् लकार यथा उदाहरणं कुर्मः, लस्य इति यदि तस्य ल अधिकार विवक्षा कर्तरी अस्ति, तो शप् कर्तरि शप्नेन कर्तरि विधीयते, तिङ् प्रत्यय आगच्छति, तदनन्तरं कर्तरि शप् विधीयते. शप् स्थाने श्लु ज्योतादि श्लु इति सूत्रम् आगच्छति, तो कर्तरि शप्स्य लोपः भवति. इदानीं श्लु इति अस्ति, तो श्लौ अनेन द्वित्वकार्यं भवति धातोः. तदनन्तरम् अभ्यासकार्यं द्वित्वम् अस्ति, तु अभ्यासकार्यं प्रथमं सामान्य अभ्यासकारणं करणीयं. ये सूत्राणि वयं जानीमः, ह्रस्व हला ह्रस्व अनेन अभ्यासस्य यत् चुम्बनम् अस्ति तस्य ह्रस्वत्वं भवति. हलादिशेषजने प्रथमं आदौ आदिम हलादि शिष्यते, अन्य हल् वर्णाः तेषाम् अभ्यासे लोपः भवति. कुहोश्चु इति अस्ति, अत्र कवर्गीयवर्णाः सन्ति, तेषां यथास्थानं सङ्ख्यास्थानं समानम् अनेन चवर्गीयवर्णाः आगच्छन्ति. हकारस्थाने अन्तरन्तरम् अनेन झकार अस्ति, चवर्गीयवर्णः आगच्छति. उरत इति अस्ति, यदि अभ्यासे रित् धातुः अस्ति तत्र अत् भवति, तस्य उनरप्रणे अर् आदेशः भवति. अभ्यासे चर्चनेन झल् स्थाने यदि भागं द्वयं कुर्मः झष् वर्णः यदि अस्ति परे तस्य झष् आदेशः भवति, यदि खय् वर्णः अस्ति तस्य परे चर्च् चर् आदेशः भवति इति कार्यं भवति। तदनन्तरं विशेषभाषाकारणे कार्यं भवति, ते अहम् अग्रे पठामः। भिन्नामित् अर्तिपिपत्योश्च इति सूत्रा द्वे सूत्रं द्वयमस्ति। तदनन्तरं द्वितकार्यं करणस्य तदनन्तरं वयं अङ्गकार्यं निष्पन्नं भवति, तिङ् प्रत्ययाः ये सिद्धा अनदन्तम् अङ्गस्य सिद्धा तिङ् प्रत्ययाः सन्ति तेषां मेलनं भवति इति।
बहु सम्यक् भगिनि, सम्यक्,
धन्यवादः।
तर्हि समीचीनं, तर्हि तत्र क्रमः कः इति अस्माभिः ज्ञायते एव। अत्र केवलम् एतदेव वक्तव्यं, विशेष अभ्यासकार्यम् इत्यत्र चत्वारि कार्याणि, चत्वारि कार्याणि कानि इति चेत्, निजां त्रयाणां गुणः श्लौ इति एकं सूत्रं, निजां त्रयाणां गुणः श्लौ, ब्रियामित् अर्तिपिपर्त्योश्च, अनन्तरं बहुलं छन्दसि इति विशेष अभ्यासकार्याणि। निजां त्रयाणां गुणः श्लौ, ब्रियामित् अर्तिपिपर्त्योश्च, बहुलं छन्दसि इति चत्वारि सूत्राणि।
अत्र केवलं द्वयं दत्तमस्ति साधु, अग्रभागे आगच्छति चत्वारि सूत्राणि।
तत्र अनन्तरं जुहोत्यादिगणे हलन्तदातवः इति वयं पठामः खलु,
अस्तु अस्तु अस्तु,
तत्रापि वयं द्रष्टुं शक्नुमः, तत्र निज् इति दातवः सन्ति खलु, निज् इत्यादि तत्र तत्र वयं पश्यामः।
धन्यवादः।
तर्हि इदानीम् अग्रे गच्छामः, अग्रे किं लक्ष्मीभगिनी पठतु।
आं भगिनि, पठामि। भगिनि अत्र अदभ्य स्यात् तदेव
न, विकरणप्रत्ययं निमित्तिकम् अङ्गकार्यं तदा विकरणप्रत्ययोः धातुविकरणप्रत्ययोः मेलनं अदभ्यस्तादि तस्मात् पूर्वं बिन्दु नम्बर् वन् प्रथमः बिन्दुः
विकरणप्रत्ययस्य निमित्तकस्य अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं। विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति यतः शप् विकरणप्रत्ययस्य श्लू भवति, श्लू तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति, तच्च तृतीये सोपाने क्रियते, तेन एकैकस्य धातोः चर्चा करणीया एकवारमेव, तदर्थम् अभ्यासकार्यमपि तत्रैव भवति। अस्माकं प्रथमसोपानमस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यम् इति, ततः परं धातुविकरणप्रत्ययोः मेलनञ्च प्रथमं सोपाने भवति। तर्हि जुहोत्यादिगणे किं भवति इति चेत्, विकर्णप्रत्ययः शप् इति एव अस्ति, किन्तु तस्य लोपः श्लू इति इत्यनेन नाम्ना लोपः लुप् जायते, श्लू जायते। तर्हि विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यम् अत्र न भवति, यतोहि तस्य लोपः शपः लोपः कृतम्, अतः शप् विकर्णप्रत्ययस्य श्लू भवति इति कारणेन अङ्गकार्यमपि न भवति, निमित्तमपि न भवति, अङ्गकार्यमपि न भवति। तृतीयसोपाने तच्च तृतीयसोपाने येन एकस्य धातोः चर्चा करणीया एकवारमेव। तत् किम् अस्ति भगिनि, तृतीये सोपाने इत्युक्ते मेलनं यत्र भवति, तत्तु एकैकस्य धातोः चर्चा एकवारमेव। तर्हि अत्र अभ्यासकार्यस्य विषयं यानि भवन्ति तस्य चर्चा तु जाता, सामान्य अभ्यासकार्यस्य चर्चा तु अत्रैव क्रियते। द्वितीयसोपानमस्ति तिङ् प्रत्ययसिद्धिः। जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्तमङ्गानां कृते सिद्धतिङ् प्रत्ययाः भवन्ति, परन्तु यत्र धातुः अभ्याससंज्ञकः अस्ति तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते। जुहोत्यादिगणे सर्वे धातवः अभ्याससंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः। अस्माभिः पठितं यत् युहूत्यादिगणे द्वित्वं भवति, तत्र अङ्गकार्यम् अभ्यासकार्यमपि भवति, पूर्वभागः अभ्यासः इति नामधेयं, तस्य भिन्नकार्याणि भवन्ति. अङ्गं तु अनदन्तम् अङ्गं भवति, तस्य अभ्याससंज्ञकः इति अपि अस्ति. अत्र विशेषकार्यद्वयमपि वर्तते, सामान्यकार्यं तु अस्माभिः चर्चितम्, अत्र विशेषकार्यद्वयं भवति द्वे कार्ये स्तः. तत्तु अदभ्यस्तात् इति सूत्रं, ततः परं सिजभ्यश्च सिदिभ्यश्च इति अन्यत् सूत्रम् इति अग्रे दत्तमस्ति.
बहु समीचीनं भगिनि. तत्र किञ्चित् एकवारं वदामि, भवती उक्तवती एव शपः विधानं, शपः श्लु भवति इति उक्तं. तत्र श्लू इति लुमान् अस्ति इति कृत्वा न लुमताङ्गस्य इत्यनेन प्रत्ययलोपे, अङ्गस्य प्रत्ययलोपे प्रत्यलक्षणं न भवति इति उक्तम्. अनेन वयं ज्ञातुं शक्नुमः अङ्गस्य अङ्गे अङ्गकार्याणि न भवन्ति, श्लूप्रत्ययं निमित्तीकृत्य सामान्य अङ्गकार्याणि न भवन्ति इति वयम् अवगन्तुं शक्नुमः, यतोहि तत् तादृशकार्याणि निषिद्धानि. परन्तु यदा तत्र द्वित्वं भवति तदानीं द्वित्वं यदा भवति तदानीं तत्र श्लू इति प्रत्ययं निमित्तीकृत्य विशिष्ट अभ्यासकार्याणि भवन्ति. अभ्यासकार्याणि अपि अङ्गकार्याणि, परन्तु विशेषतया अष्टाध्याय्याम् एतानि सूत्राणि उक्तानि इति कृत्वा यद्यपि अङ्गकार्याणि तथापि तत्र तादृशकार्याणि भवन्ति. तदर्थम् अभ्यासकार्याणि सर्वाणि अपि भवन्ति. द्वित्वं यदा भवति तदानीम् अभ्यासस्य अङ्गकार्याणि भवन्ति, विशेष अङ्गकार्याणि, सामान्य अङ्गकार्याणि निषिद्धानि. परन्तु विशेष अङ्गकार्याणि यत्र अभ्यासस्य विषये कार्याणि भवन्ति तानि सामान्य अभ्यासकार्याणि वा भवतु, विशेष अभ्यासकार्याणि वा भवन्तु इति तत्र अवश्यम् एतानि कार्याणि भवन्ति.
भगिनी अपि च श्लौ इत्यनेन यत्र द्वित्वं भवति तत् द्वित्वमपि अङ्गकार्यमिति वक्तुं शक्यते वा?
हा, द्वित्वम् इति अपि अङ्गकार्यमेव, यतोहि श्लौ परे एव भवति खलु, श्लौ निमित्तीकृत्य एव द्वित्वं भवति, अतः तदपि अङ्गकार्यमेव,
तस्यापि अस्मिन् गणे एव परिगणनीयम् इति चिन्तयामि.
अतः एव द्वितीयसोपाने एव अङ्गकार्यम् इति यदा वयं वदामः द्वित्वम् अभ्यासकार्यं सर्वं तत्रैव भवति. अतः एव तत्र उक्तं तच्च तृतीयसोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव. तर्हि एकं धातुं स्वीकुर्मः चेत् तत्र द्वित्वम् अभ्यासकार्यं, विशेष अभ्यासकार्यं, सामान्यं सर्वं तत्र एकस्मिन् सोपाने सर्वं भवति अङ्गकार्यम् इति. तानि विहाय अन्यानि न भवन्ति, अन्यानि सामान्य अङ्गकार्याणि न भवन्ति. अपि च अत्र अग्रिमं किम् उक्तम् इति चेत् तिङ् प्रत्ययस्य अपि विशेषः वर्तते. अस्माभिः तिङ् प्रत्ययानां सिद्धिः इति अस्माभिः पूर्वं पठितं. तत्र अनदन्त अङ्गानां कृते तिङ् प्रत्ययाः कथं भवन्ति इत्यपि वयं जानीमः, परन्तु तत्रापि अनदन्त अङ्गानां ये तिङ् प्रत्ययाः सन्ति तत्रापि विशेषः वर्तते जुहोत्यादिगणे. तदर्थं तत्र सूत्रद्वयं दत्तमस्ति, अदभ्यस्तात् सजभ्यस्य विधिभ्यश्च इति. तत् इदानीं वयं पश्यामः. अस्तु भगिनि, धन्यवादः. इदानीम् अन्य कोऽपि पठतु, मेहुल् महोदय पठति वा अदभ्यस्तात्?
आं भगिनि, नमस्कारः, श्रूयते खलु? अस्तु, अदभ्यस्तात् सप्तमध्याये प्रथमपादे चतुर्थसूत्रम्, अभ्यस्तसंज्ञकधातुत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रं, झोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः, आयनेयः खढ खजगां प्रत्यादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यादेः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्, अभ्यस्तात् अङ्गात् प्रत्यादेः झः अत्. अस्तु, अत्र अभ्यस्तसंज्ञक यः धातुः अस्ति तस्य परे यः प्रत्ययः अस्ति तस्मिन् प्रत्यये यदि आदिम अवयवः झकारः अस्ति चेत् तस्य झकारस्य स्थाने अत् इति ह्रस्वकारः आदेशः भवति इति एतत् सूत्रस्य अर्थः अदभ्यस्तात् इत्यस्य अभ्यस्तात् अङ्गात् परे इत्युक्ते पञ्चम्यन्तम् अस्ति अतः तस्य परे यः प्रत्ययः अस्ति तद् आदेः प्रत्ययादेः यत् जः इति उक्तमस्ति जकारस्य षष्ठीभक्ति जः तस्य स्थाने अत् इति प्रथमान्तम् अतः अत् इति आदेशः भवति इति अत्र लिखितम् ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यमिति सूत्रेण सम्यकः न यतोहि अत्तु विभक्तिसंज्ञकः झि प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम् अस्तु अत्र अत् इति आदेशः भवति तर्हि सामान्यतया वयं चिन्तयामः अत्र तकारस्य हलन्त्यम् इत्यनेन इत्यन्या भूत्वा अ इति एव अवशिष्यते परन्तु अत्र तकारस्य इत्यन्या न भवति यतोहि न विभक्तौ तु स्मः इत्यनेन हलन्त्यम् इति सूत्रं बाधितं भवति यतोहि अत्र विभक्तिसंज्ञक झि प्रत्ययस्य अवयवः यत् अत् इति आदेशरूपेण यत् आगच्छति सः आदेशः केन कस्य स्थाने भवति इति चेत् अत्र यत् बहुवचने झि इति प्रत्ययः अस्ति तस्य स्थाने एव अत् आदेशः इत्युक्ते झि इत्यस्मिन् यः झकारः अस्ति तस्य स्थाने अत् आदेशः भवति अतः अत् आदेशः यत्र भवति तदपि तिङ् प्रत्ययः अपि च विभक्ति सम्यक् प्रत्ययः इत्युक्ते तस्य अन्या एका संज्ञा अस्ति विभक्ति इति अतः न विभक्तौ तु स्मः इत्यनेन तत्र अन्तिम तत्त्ववर्गीयवर्णः अथवा सकार अथवा मकारस्य लोपः न भवति अतः एव हलन्त्यम् इति सूत्रम् अत्र बाधितं भवति तर्हि अदभ्यस्तात् इति सूत्रस्य एकम् उदाहरणं पश्येम चेत् तत्र लट्लकारे अपि च लोट्लकारे प्रथमपुरुषस्य बहुवचने झकारस्य स्थाने अत आदेशः अतः लट्लकारे झि इत्यस्य स्थाने अति भवति न तु अन्ति तथैव लोट्लकारे झि इत्यस्य स्थाने अतु इति भवति न तु अन्तु इति अस्तु तर्हि तदेव अत्र उदाहरणत्वेन दत्तमस्ति अत्र वयं जानीमः तित् झि इत्यत्र झि बहुवचनप्रत्ययः अस्ति तर्हि लट्लकारे झि इत्यस्य स्थाने अत्र द्वित्वम् इति द्युत्यादिगण्यधातु नास्ति चेत् तत्र अभ्यस्तसंज्ञा न भवति अतः तत्र अन्ति इति अनदन्त अथवा अदन्त अङ्गमस्ति चेत् बहुवचने प्रथमपुरुषे बहुवचने अन्ति इति प्रतिं प्रसिद्धतिं प्रत्ययः वयं दृष्टवन्तः परन्तु यत्र अभ्यस्त अङ्गम् अस्ति तर्हि तदेव अत्र द्युत्यादिगणे स्थितिः अस्ति तत्र एतद् विशिष्टसूत्रेण अदभ्यस्तात् इति विशिष्टसूत्रेण आदिम प्रत्ययस्य आदिम अवयवः यः झकारः अस्ति तस् सः झकारः अभ्यस्तसंज्ञकधातोः परे एव आयास्यति ज्योत्यादिगणे अतः झकारस्य स्थाने अत् आदेशः भवति अत्र पुनः हलन्तम् इति बाधितं भवति अतः अत् योगः झकारस्य अनन्तरम् इकारः अतः अत् योगः इकारः अति इति सिद्धतिं प्रत्ययः प्रथमपुरुष बहुवचने वयं प्राप्नुमः तथैव लोट्लकारे अत्र सामान्यतया अन्तु इति सिद्धतिं प्रत्ययः अस्ति अदन्तम् अङ्गमस्ति वा अङ्गम् अस्ति वा तथा तत्रापि अन्तु इत्यस्य स्थाने अत्र ज्योत्यादिगणे पुनः अभ्यस्तसंज्ञकधातुः अस्ति अतः तस्य परे यः झि इति प्रत्ययः तस्य स्थाने अन्तु इति आदेशः न भूत्वा अत्र अत् इति आदेशः भूत्वा अत् योगः उकारः एव अस्ति तत्र अतः अन्तु इति इत्यस्य स्थाने अतु इति वयं प्राप्नुमः अत्र लोट्लकारे ज्योत्यादिगणे सिद्धतिं प्रत्ययः इति
समीचीनं तर्हि अदभ्यस्तात् इति सूत्रमस्ति एतत्तु परिचितं सूत्रमस्ति पूर्वमपि अस्माभिः पठितमासीत् कुत्र पठितमासीत् स्मरति वा अदादिगणे पठितं खलु तत्र जक्षित्यादयः षट् इति सन्दर्भे पठितमासीत् इति मन्ये यतोहि तत्रापि अभ्याससंज्ञा तत्रापि भवति द्वित्वं न भवति परन्तु जक्षित्यादयः षट् इत्यनेन सप्तधातूनां तत्र अभ्यस्तसंज्ञा भवति तत्रापि एतादृशकार्यं तत्रापि भवति तर्हि अदभ्यस्तात् इत्यनेन अङ्गस्य अभ्यस्तसंज्ञा भवति द्वित्वानन्तरम् अभ्यस्तसंज्ञा यद् भवति अङ्गस्य तदानीं प्रत्ययस्य आदिम ज इत्यस्य जकारस्य स्थाने अत्तादेशः भवति झोन्तः इत्यस्य बाधकमस्ति इदं सूत्रं जकारस्य स्थाने अन्त् इत्यस्य स्थाने इदानीम् अत् इति आदेशः भवति अभ्यस्तसंज्ञकाङ्गमस्ति चेत् तर्हि तत्र इदं सूत्रं कुत्र कुत्र कार्यं करोति केषु केषु स्थलेषु
अदभ्यस्तात् इति वा तत्तु लट् लकार प्रथमपुरुष बहुवचने अपि च लोट् लकार प्रथमपुरुष बहुवचने अपि च हा तत्र लङ् लकारे अपि भवति परस्मिपदि परस्मिपदि धातुः अस्ति चेत्
लोट् लङ् लङ् विङ् लिङ् लिङ् लकारे
हा लिङ् लकारे अपि भवितुमर्हति सत्यम् अत्र सार्वधातुकलकारं चिन्तनमेव कुर्मः चेत् तत्र लट् लोट् लङ् सार्वधातुकलकारे लिङ् लकारे अपि भवति नित् अस्ति तत्रापि भवति इति मन्ये आं सत्यं
लिङ्लकारे विभिलिङ्लकारे जुस्
अस्य प्रसक्तिः अस्ति तत्रापि अस्य प्रसक्तिः अस्ति परन्तु तत् सूत्रं बाधितमस्ति खलु जेहे जुस् इत्यनेन जुस् आदेशः तत्र भवति लिङ्लकारे विधिलिङ्लकारे लट् लोट् लङ् इति त्रिषु लकारेषु भवितुमर्हति परन्तु लङ्गि अग्रिमसूत्रेण लङ्गि सृजभ्यस्य विधिभ्यश्च इति सूत्रेण लङ्लकारे अदभ्यस्तात् इति बाधितम् अस्तु समीचीनम् तर्हि अभ्यससंज्ञक अङ्गस्य अनन्तरं साक्षात् ज इति प्रत्ययः भवेत् इत्युक्ते तत्र मध्ये विकरणप्रत्ययः न भवेत् अतः एव अत्र जुहोत्यादिगणे कार्यं भवति विकरणप्रत्ययः मध्ये अस्ति चेत् अस्य सूत्रस्य कार्यं न भवति पञ्चम्यन्तस्य अनन्तरं साक्षात् प्रत्ययः भवेत् अस्तु
प्रत्ययस्य आदिमवर्णः जकारः भवेत्
प्रत्ययः इत्युक्ते बहुवचनप्रत्ययः बहुवचनान्तप्रत्ययः आत्मनेपदेषु भवति वा
आत्मनेपदेषु न भवति अत्र झ इति एव अस्ति तत्र तत्र न भवति
तत्र प्रत्ययः कः बहुवचनान्तप्रत्ययः कः
बहुवचनान्तप्रत्ययः झ त अतां झ इति अस्ति खलु तत्रापि झकारः अस्ति परन्तु तत्र तु न भवति
लट्लकारे वदति वा कुत्र इत्युक्ते सामान्यतया आत्मनेपदेषु न भवति इति वा
सामान्यतया आत्मनेपदेषु न भवति यत्र कुत्रापि लट् लोट् लङ् विधिलिं सर्वत्र आत्मनेपदी न भवति मया अवगतं भवतु न स्मरामि क्षम्यताम्
आत्मनेपदे जीस्थाने तत्र जस्थाने आत्मनेपदेषु अनदन्त आत्मनेपदानां कृते तत्र जस्थाने अत् आदेश एव खलु
सत्यम् आत्मनेपदेषु अनतः इत्यनेन लोट् लकारे
अत्र भगिनि तत्र आत्मनेपदीनां कृते तत्र अन्तादेशः न भवति अनदन्तमङ्गम् अस्ति चेत् आत्मनेपदेषु सामान्यमस्ति लोट् लङ्
लट् लोट् लङ् इति तदेव तत् वक्तव्यं लोट् लकारे अपि आत्मनेपदेषु अनतः इति वक्तव्यं लङ् लकारे अपि एवमेव केवलं विधिलिङ् लकारे तत्र किं भवति रन्नादेशः भवति इति अस्ति अतः अत्र सत्यम् अतः केवलं परस्मैपदीषु लट् लोट् इत्यत्र एव अदभ्यस्तात् इत्यस्य कार्यम् आहत्य अस्तु अग्रे गच्छामः
आत्मनेपदे किमर्थं न भवति
तत्र आत्मने अत्र अस्य सूत्रस्य प्रसक्तिः तु अस्ति अदभ्यस्तात् इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत्र आत्मनेपदेषु अनतः इति अन्य सूत्रं
सत्यं भवति न तत्र तु अस्तु आत्मनेपदेषु परसूत्रमस्ति वा? एतत् परसूत्रमस्ति वा तत्र?
आम् आम्, सप्तमध्ये प्रथमवादे पञ्चमं सूत्रं ज्योन्तः इति तृतीयं
सूत्रं पञ्चमं सूत्रमस्ति,
पञ्चमं सूत्रम्
आत्मनेपदेशः. अस्तु, अस्तु, समीचीनं भगिनि, धन्यवादः.
अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तर्हि कः पठति तत्र? शङ्करन् महोदय पठति वा? सृजप्यस विधिभ्यश्च
पठामि भगिनि. सृजप्यस्त विधिभ्यश्च ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य जी प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं ङितः ङितः इत्यस्मात् ङित इत्यस्य अनुवृत्तिः, जेर्जुस् इत्यस्मात् जेः जुस् इत्यनयोः अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यश्च विधिभ्यः च ङितः लस्य जेः जुस् सूत्रमस्ति सिजभ्यस्तविधिभ्यश्च इति. ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः, अस्माकं प्रसङ्गे तु अहं चिन्तयामि अभ्यस्तसंज्ञकात् धातोः इति अस्माकं प्रसङ्गः अस्ति. अभ्यस्तसंज्ञकात् धातोः पुनः विद् धातोः च परस्य अस्माकं प्रसङ्गः तु अभ्यस्तसंज्ञकात् धातोः परस्य जी प्रत्ययस्य स्थाने जुस् आदेशः भवति इति एव इदानीम् अस्माकं प्रसङ्गस्य इति अहं चिन्तयामि. अन्यत्र ङित् लकारस्य सिच् प्रत्ययस्य यत्र यत्र तस्य तेषां प्रसक्तिः तत्र अन्यत्र भवति स्यात्. अतः अभ्यस्तसंज्ञकधातुः अस्ति, तस्मात् परस्य जी तस्मात् परस्य जी प्रत्ययस्य स्थाने जुस् आदेशः भवति इति एव अस्माकं कार्यम् इदानीम्. अनुवृत्तिसहितसूत्रं किम् अस्ति इति सिजभ्यस्त विधिभ्यश्च च ङितः लस्य जेः जुस् अस्माकम् अभ्यस्तसंज्ञकः धातु अस्माकम् इदानीं ज्योत्यादिगणे द्वित्वानन्तरम् अभ्यस्त संज्ञकः संज्ञकः संज्ञा प्राप्नोति. तेन तत्र यदा जी प्रत्ययस्य यत्र यत्र जी प्रत्ययः अस्ति तत्र जी स्थाने जेः जी स्थाने जुस् आदेशः इति अस्य सूत्रस्य कार्यं भवति. अनेन लङ्गि अभ्यस्तसंज्ञकः धातोः परस्य जी स्थाने जुस् आदेशः, जुस् इत्यस्य अनुबन्धलोपे रुत्वविसर्गे उः भवति. तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङि अनुस्थाने उः इति प्रत्ययः भवति. आम्, अस्य सूत्रस्य कार्यं लङ्लकारे भवति. लङ्लकारे इदानीं जी इति अस्ति, जी स्थाने जुस् आदेशः भवति. प्रथमपुरुष बहुवचनप्रत्ययः यदस्ति जी प्रत्ययः तस्य जी प्रत्ययस्य स्थाने जुस् आदेशः भवति. पुनः जुस् इति यदस्ति तत्र अनुबन्धलोपानन्तरम् उः एव अवशिष्यते. तेन इदानीम् अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङ्लकारे प्रथमपुरुष बहुवचनस्य पूर्वं सामान्यतया अनदन्ताङ्गानाम् अन् इति भवति, अन् इति प्रत्ययः भवति. अन् स्थाने उः इति प्रत्ययस्य ऊ प्रत्यय आगच्छति जेर्जुस् इति सिजभ्यश्च विधिभ्यश्च इति सूत्रेण ऊ प्रत्ययस्य विधानं भवति इति एव अस्य सूत्रस्य अस्माकं प्रसङ्गे कार्यं भवति.
हा बहु सम्यक् महोदय. किमर्थम् अन्स्थाने इति उक्तम्?
अन्स्थाने नास्ति, जी स्थाने. पूर्वं जी यत्र अभ्यस्तसंज्ञकः नास्ति चेत् तत्र अन् अन् एव तिष्ठति.
सत्यं. तदानीं झोन्तः इत्यनेन अन् इति आदेशः लभ्यते, अन् इति अन्तिमरूपं लभ्यते.
आम् आम् भगिनि.
अत्र तु साक्षात् झी इत्यस्य स्थाने जुस् आदेशः भवति.
संयोगात् लोपानेन तकारस्य लोपः भवति.
तत्र तत्र आम् तत्र अभ्यस्तसंज्ञक अङ्गं नास्ति चेत् तदानीम् अन् इत्यत्र संयोगान्तस्य लोपः इत्यस्य कार्यं भवति. इदानीम् अभ्यस्तसंज्ञकः अस्ति चेत् साक्षात् प्रत्ययस्य स्थाने जुस् आदेशः भवति अनेन सूत्रेण. तर्हि अस्य सूत्रस्य कार्यं कुत्र कुत्र भवितुमर्हति?
अत्र जी इति तु अस्ति, लट्टि अपि भवितुमर्हति, लोटि अपि भवितुमर्हति.
लटि भवितुमर्हति वा लोटि भवितुमर्हति वा? पश्यतु अनुवृत्तिसहितसूत्रम्.
ओ ङितः, ओ अस्तु क्षम्यतां, ङितः यत्र ङित् अस्ति तत्र एव. अतः लङ्लकारे लङ्लकारे लिङ्लकारे द्वित्र भवितुमर्हति भगिनि.
परस्मैपदि वा आत्मनेपदि वा?
लङ्लकारे परस्मैपदि भगिनि. आत्मनेपदि इदानीम् एव वयं चर्चितवन्तः, तत्र न भवति इति चिन्तयामि भगिनि.
न आत्मनेपदि अस्य प्रसक्तिः अस्ति वा?
प्रसक्तिः तु अस्ति, प्रसक्तिः तु अस्ति, परन्तु अन्यत् सूत्रं प्रसक्तिः अस्ति.
प्रसक्तिः पश्यतु किमुक्तं
लङ्लकारे. एकनिमिषं, मूलप्रत्ययः
कस्य स्थाने कः आदेशः अत्र?
जेर्जुस् जी जी अस्ति चेत् एव अत्र मूलप्रत्ययः आत्मने प्रति नास्ति भगिनि. अत्र जकार एव अस्ति, जे नास्ति, जोन् जकार एव अस्ति, तेन न भवति. आम् आं भगिनि, आम्
जकारः न, झ इति अस्ति,
झारि ज अस्ति, ज अस्ति.
अतः आत्मनेपदीषु अस्य प्रसक्तिः एव नास्ति, केवलं परस्मैपदीषु एव.
अवगतम्.
तत्तु लङ् विधिलिङ्, परन्तु विधिलिङ् इत्यत्र इतोपि विशिष्टसूत्रमस्ति. तत्र किं जे हेजुस् इति अस्ति कृत्वा तेन सूत्रेण तत् विधिलिङ् लकारे भवति. केवलं लङि एव अस्य प्रसक्तिः प्राप्तिः च.
अस्तु भगिनि, आं भगिनि.
अतः जी स्थाने जुस् आदेशः अनेन भवति. तिच् प्रत्ययः लुङ् लकारे अभ्यस्तसंज्ञक अङ्गम्, अनन्तरं विद् इति कश्चन धातुः. एतेभ्यः परः नित् लकारस्य झी प्रत्ययस्य जुस् आदेशः भवति.
परन्तु अस्य सूत्रस्य इदानीम् अस्माकं जुहोत्यादिगणे तु अत्र यत्र अभ्यस्तसंज्ञक धातु तत्र एव अस्माकं प्रसङ्गे सिद्धिः किल भगिनि अस्य सूत्रस्य?
सत्यम्.
अस्तु
सत्यम्. अत्र तु प्रसङ्गः अस्ति, अभ्यस्तसंज्ञक अङ्गम् अस्ति इति कृत्वा प्रसङ्गः अस्ति.
अस्तु.
तर्हि इदानीम् अत्र प्रश्नः, अत्र जुस् इति आदेशः झी प्रत्ययस्य स्थाने कुत्र भवति?
लङ्लकारे
तद् अवगतं, तदवगतं. तत्र झी इति प्रत्ययस्य स्थाने कुत्र भवति?
विधिलिङ्गे
न, अत्र लङ्लकारे एव झी प्रत्ययस्य स्थाने जुस् आदेशः भवति इति उक्तं, तर्हि जि इति प्रत्ययस्य स्थाने कुत्र भवति? आदौ भवति वा अन्ते एव भवति वा कुत्र भवति? अनेकाल् अस्ति चेत् किं वक्तव्यम्?
अनेकाश्चित् सर्वस्य अत्यनेन सर्वस्य स्थाने तद्जुस्सादेशः भवति. जि सर्वस्य सम्पूर्णजि स्थाने जुस्सादेशः भवति.
जुस्सादेशः भवति. तर्हि तत्र प्रश्नः भवितुमर्हति, जुस् इति आदेशः अनेकाल् अस्ति वा न वा इति. जुस् इति आदेशः कीदृशः? अनेकाल् अस्ति वा?
ओ अस्तु, एकाल् अपि भवति.
किम् अवशिष्यते तत्र?
इत्थनेकवर्णानां जू इति अस्ति, जू इति ज इति अवशिष्यते न तत्र. सकारः
जकारः अवशिष्यते, सकारः अपि तिष्ठति.
चकारस्य लोपः केन सूत्रेण?
चुटु इति सूत्रेण.
चुटु इति सूत्रं किं वदति?
प्रत्ययस्य आदौ चावर्गीयवर्णः अस्ति चेत् तत्र तस्य लोपः भवति न.
जुस् इति इदानीं प्रत्ययः अस्ति वा?
आदेशः अस्ति. अस्तु, प्रत्ययः नास्ति साक्षात्, परन्तु प्रत्ययत्वं प्राप्नोति न तत्र स्थानिवद्भावेन. जि स्थाने आदेशः भवति चेत् तत्र प्रत्ययत्वं
अग्रे गत्वा प्राप्नोति, परन्तु इदानीं प्रत्ययत्वं नास्ति खलु?
सत्यं, प्रत्ययत्वं नाम
तत्र मतद्वयं वर्तते, मतद्वयं वर्तते. तत्र नागेशादिभिः किम् किम् उच्यते इति चेत् इत्संज्ञा योग्यत्वम् इत्युक्ते अग्रे गत्वा इत्संज्ञकः भवितुमर्हति. यदा प्रत्ययत्वं प्राप्नोति तनिवद्भावेन तदानीम् इत्संज्ञकः भवति इति कृत्वा इदानीम् आदौ एव वयम् इत्संज्ञकः इति स्वीकर्तुं शक्यते. अतः चकारस्य लोपः भवति, जकारस्य लोपः भवति, परन्तु सकारः न विभक्तौ तु स्मः इत्यनेन बाधितः इति कृत्वा उस् इति अवशिष्यते. उस् अनेकाल् अस्ति इति कृत्वा सर्वादेशः इति नागेशादिभिः मतम्. परन्तु प्राचीनानां मतं किम् इति चेत् तत्र इदानीं तु प्रत्ययत्वं नास्ति, जुस् इति आदेशः एव, प्रत्ययत्वं नास्ति. अतः जुस् इत्येव आदेशः अनेकाल् अस्ति, अतः अत्र उभयतापि अनेकाल्त्वं प्राप्यते इति कृत्वा सर्वादेशः एव भवति. जुस् इति सर्वादेशः. अवगतं वा?
अस्तु, एतत् सूत्रं तु अतभ्यस्तात् तत् सूत्रस्य भागक अतभ्यस्तात् इत्यस्य तु अपवादसूत्रं भवितुमर्हति वा?
चिन्तयतु, अपवादः अस्ति वा इत्युक्ते तत्र अदभ्यस्तात् इति सूत्रं लङ्लकारे प्रवर्तते वा इति प्रश्नः.
प्रवर्तते न, अतभ्यस्तात् संज्ञकस्य तत्र झास्थाने अत्र आदेशः भवते सामान्यसूत्रमस्ति, परन्तु एतत् विशिष्ट नित् लकारे एव कार्यं कर्तुम् अर्हति इत्यस्मात्
अपवादसूत्रम् अपवादः इति वक्तुं शक्यते. यतोहि अत्र कार्यं न करोति चेत् अन्यत्र तस्य अवकाशः न भवति नित् लकारेषु. अस्तु, अस्तु, तर्हि इदानीम् अग्रे गच्छामः. प्रश्नाः न सन्ति चेत् तर्हि इदानीम् अग्रे किं विजयभगिनी पठितुमिच्छति वा अग्रे?
आं महोदय. अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य जि स्थाने किं महोदय?
तदभवत् अग्रे.
अतः आहत्य अभ्यस्तसंज्ञकधातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते जुहोत्यादिगणे एते एव योजनीयाः. अत्र परस्मैपदं लक्लकारे तीतः अति सीतः थ मि वहमः. आत्मनेपदमस्ति ते आते अते से आर्थे द्वे ए वहे महे इति अस्ति. लोट्लकारे तूतात् ताम् अतु हीतात् तंस आणि आव आम इति लट्लकारे परस्मैपदिनः. लोट्लकारे ताम् आताम् अथाम् स्व आर्थं त्वम् ऐ आवहै आमहै. लङ्लकारे इत् ताम् उः इस् सम्त अम् व म अस्ति त आर्थम् अथ थः आर्थं द्वम् हि वहिमहि विधिलिङ्गकारे यात् यातां युः याः यातं यात यां यावयाम आत्मनेपदिनः ईत ईयाताम् ईरन् ईतः ईयाथम् ईध्वम् ईय ईवहि ईमहि एतत् सर्वम् अनदन्त अनदन्ते अस्ति खलु महोदय
अनदन्ताङ्गानाम् अभ्यससङ्ख्यानाम् अनदन्ताङ्गं
सिद्धतिं प्रति
सिद्धतिं प्रति अतः ज्योत्याद्दिगणे एतेषां प्रयोगः अस्तु समीचीनं धन्यवादः इदानीं
धन्यवादः
अग्रे श्रीरा महोदय अग्रे
भगिनि एकः प्रश्नः अस्ति तत्र लिङ्ग्लकारे चेर् चुस् इत्यनेन तत्रापि चुस्वादेशः भवति सिजभ्यस्तविदिभ्यश्चेतनेन अपि चुस्वादेशः भवति तत्र जेर् चुस् इति सामान्यसूत्रमस्ति वा तत्र तत्र लिङ्ग्लकारे एव उक्तं परन्तु नित्लकारे एतत् अपि वक्तुं शक्यते न तत्र लिङ्ग् इति नित् अस्ति अतः तस्य सूत्रस्य प्रवृत्तिः अपि भवितुमर्हति न
अत्र साक्षात् अभ्यस्तात् अङ्गात् नास्ति
सर्वत्र भवति इति वा तत्र
अत्र याट् सूट् याट् आगमः भवति खलु अभ्यस्तात् साक्षात् न भवति तत्र न भवति इति अहं चिन्तयामि
सम्यक्
सम्यक्
पुनः वदति वा महोदय एकवारं वदति वा पुनः वदति वा एकवारम्
अत्र यासु परस्मैपदेषु अनुदात्तः इति सूत्रम् अस्ति खलु तेन किं याडागमः भवति तर्हि याडागमः भवति चेत् तत्र अभ्यस्तात् साक्षात् प्रत्यये नास्ति
उत्तमम् यथा अदभ्यस्तात् इत्यत्र उक्तम् अदभ्यस्तात् इत्यस्य साक्षात् अनन्तरं तत्र प्रत्ययः झ इति प्रत्ययः भवेत् इति उक्तं तथैव अत्रापि सृजभ्यस्य दिदिभ्यः इति इत्यस्मात् साक्षात् अनन्तरं प्रत्ययः भवेत्
ओ अस्तु अतः तत्र कार्यं अस्तु मध्ये याड् अङ्गमः भवति अस्तु धन्यवादः धन्यवादः महोदय
न परन्तु महोदय शीला महोदय यासुट् आगमः भवति चेत् यासुट् आगमः कस्य भवति प्रत्ययस्य भवति तर्हि इदानीं तत्र झी झी इति प्रत्ययः नास्ति वा
झी इति प्रत्ययः झी इति प्रत्ययः अस्ति इति
झी इति प्रत्ययः तु अस्ति एव यतोहि आगमाः तु अवयवभूताः अतः यासुडागमः आगच्छति इति कृत्वा प्रत्ययः साक्षात् परः नास्ति इति न वक्तुं शक्यते खलु
यदि
सम्यक् न श्रूयते
सत्यं भगिनि
अतः तत्र तत्रापि प्रसक्तिः अस्ति विधिलिङ्ग्लकारे अपि प्रसक्तिः अस्ति यासुटागमः प्रत्ययस्य भागः अस्ति अतः तदपि प्रत्ययः तदपि जी इति प्रत्ययः अस्ति तर्हि तत्र यासुटागमानन्तरं यासुट् योगः झी इति प्रत्ययः तर्हि इदानीं तत्र सिजभ्यस्य विधिभ्यश्च इत्यनेन जुसादेशः भवति चेत् समग्र यासुट् इत्यपि प्रत्ययं स्वीकृत्य तत्र सर्वत्र जुसादेशः भवितुम् अर्हति परन्तु अत्र चिन्तनीयं यासुट् आगमः प्रथमतया भवति वा सुजभ्यस्य विधिभ्यश्च इत्यनेन कार्यं प्रथमतया भवति वा इति चिन्तनीयं तत्र चिन्तनीयं तत्र बलाबलचिन्तनं किञ्चित् क्रमः कः इति चिन्तनीयम् तस्य विषये गृहपाठरूपेण चिन्तयन्तु यतोहि समग्रतया चिन्तनीयं सृजत्यस्य विधिभ्यश्च यासुत् उदात् यासुत् परस्मैपदेषु उदात्तो निच्च अनन्तरं जेः जुस् त्रीणि सूत्राणि इत्येषां चिन्तनं कुर्वन्तु. क्रमः कः, किं पूर्वम् आयाति, कस्य प्रसक्तिः कुत्र इति. प्रश्नः उचितः अस्ति, समीचीनम्. अस्तु तर्हि अग्रे गच्छामः. इदानीं किं श्रीरामहोदय पठति वा?
तिङ् प्रत्ययं निमित्तिकम् अङ्गकार्यं वा? तदा अङ्ग तिङ् प्रत्ययोपमेलनम् आकारान्तदातवः षड्दातवः सन्ति. माङ् माणे मा ओहाङ् गतौ हा ओहाक् त्यागे हा गास्तुतौ गा बुधायि दाने दा बुद्धायि धारणकोशयोः धा षड् आकारान्तदातवः सन्ति. तत्र माङ् माणे मा ओहाङ् गतौ हा ओहाक् त्यागे हा गास्तुतौ गा द्वित्वम् अभ्यासकार्यं च. अस्तु, इदानीं अस्तु द्वित्वं करणीयं वा? तत्र प्रथमं वृत्तं करणीयं वा? द्वित्वम् अभ्यासमेव बृञ्जां मृतः इत्यस्य प्रसक्तिः भवति वा? त्रयाणाम् अङ्गानाम् अभ्यासस्य
द्वित्वानन्तरमेव अभ्रियाम् इत्यस्य.
अस्तु, तर्हि एकं स्वीकरोमि वा? मा इति स्वीकरोमि. तर्हि श्लौ इत्यनेन मा इति भवति. तर्हि हलादिशेषेण मकारः तिष्ठति, ह्रस्वश्च इति नेन दीर्घ अकारः ह्रस्वादेश अकारस्य ह्रस्वादेश भवति. तर्हि मा इति तिष्ठति. हा इति तत्र किञ्चित् विलक्षणरूपं भवति. हा हा इति द्वित्वं श्लौ इत्यनेन, तदनन्तरं ह्रस्व इति न ह हा, तदनन्तरं कुहोश्चुः इत्यनेन जहा जहा, तदनन्तरम् अभ्यासचर्चा इत्यनेन जहा इति भवति. बृञ्ज्यादि अन्तर्गणः दुबृञ्ज् धारणपोषयोः माङ् माणे ओहाङ् गतौ इमे त्रयः दातवः बृञ्ज्यादयः. अस्तु, बृञ्ज्यां मित् बृञ्ज् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशः भवति श्लौ परे. अस्तु, अलोन्तस्य इत्यनेन अभ्यासन्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य बृञ्जां षष्ट्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः. अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इति अधिकारः, अनुवृत्तिसहितसूत्रं बृञ्जां त्रयाणाम् अङ्गस्य अभ्यासस्य इतः श्लौ इत्तिश्लौ. अत्र बृञ्ज्यादिगणः इति कश्चन गणः अस्ति, तत्र त्रयः धातवः अन्तर्भूताः सन्ति. बृञ्ज्यां डुबृञ्ज्, तदनन्तरं माङ्ग्, तदनन्तरं ओहाङ्ग् इति त्रयः धातवः सन्ति. इदानीं श्लौ परे द्वित्वे कृते अभ्यासंज्ञा भवति. तर्हि इदानीम् उदाहरणं स्वीकरोति, सुलभः भवति. तत्र अभ्यासस्य अन्तिमवर्णस्य इत्तादेशः भवति इत्येव सूत्रार्थः. इदानीं हा इति दातुं स्वीकुर्मश्चेत् तत्र जहा इति अस्ति, तत्र पूर्वाभ्यासः. तर्हि ज इति अभ्यासः अस्ति, ज स्थाने इत्तादेशः भवति. तर्हि जिहा इति भवति वा?
आम् सत्यं, जिहा इति भवति.
जिहा इति भवति, अर्थात् तत्र अभ्यस्त एतेषां त्रयाणां धातूनाम् अभ्यस्त भागस्य इकारादेशः भवति श्लोपरि.
समीचीनं समीचीनं. किं कश्चन प्रश्नः अस्ति वा? अस्तु, अनुवृत्तिसहितसूत्रं तत्र एकवारं प्रतिपादयितुं.
बृञां त्रयाणाम् अङ्गस्य अभ्यासस्य इत्तिश्लौ इति अस्ति. बृञां त्रयाणां अत्र बृञ्यादीनां धातूनां त्रयाणां धातूनां अभ्यासस्य अङ्गस्य इति अङ्गस्य अभ्यासस्य अत्र अवयवः अस्ति अभ्यासः इति कृत्वा अङ्गस्य अभ्यासस्य इत्तादेशः भवति.
समीचीनं. ब्रियाम् इति बहुवचनान्तप्रयोगः, ब्रिय इति धातोः षष्ठी बहुवचनं इति कृत्वा तत्र त्रयाणां धातूनां ग्रहणम्.
भगिनी अत्र प्रश्नः पृच्छामि वा?
पृच्छतु.
तत्र प्रणाम् इति उक्तत्वा तत् समीचीनं किल, त्रयाणामपि वक्तव्यं वा? त्रीणि त्रयः धातवः एव सन्ति मात्र,
त्रयाणाम् इति इति मास्तु इति वदति वा? ब्रियाम् इति तत्र बहुवचनान्तप्रयोगः अस्ति, अतः तत्र कति धातवः सन्ति इति कथं जानीमः?
त्रयः एव सन्ति न, तेषां सर्वेषामपि भवितुमर्हति न?
अतः ब्रियादीनाम् इति उक्तं, तत्र ब्रियादीनाम् इति तत्र गणपाठे ब्रिया इत्यस्य अनन्तरं साक्षात् कः धातुः अस्ति? तत्र ब्री इत्युक्ते तत्र ब्रियादिगणः अस्ति वा?
गणः उक्तं तत्र वृणाति अन्तर्गणः, गणः इति उक्तं किल, तत्र वृणाति अन्तर्गणः, वृणादि अन्तर्गणः इति अस्ति न तत्र.
कः गणः
तत्र? तत्रैव करपत्रे अस्ति न भगिनि, तत्र वृणाति अन्तर्गणः डुभ्रुञि धारणपोषणयोः इति त्रयः धातवः सन्ति इति वाक्यमस्ति न, वृणाति इति उक्तम् इति चिन्तयामि तत्र.
कुत्र वदति?
करपत्रे तत्र सूत्रस्य पूर्वं
बृञ्यामितः इति पूर्वमस्ति.
ब्रियादि अन्तर्गणः इति उक्तं, ब्रियादि अन्तर्गणः इति
सत्यं.
तादृशगणः गणपाठे न दृश्यते.
एवं वा? अस्तु,
ब्रियादि अन्तर्गणः इति ब्रियादिगणः इति तु न दृश्यते, तर्हि तत् द्रष्टव्यं. ब्रियादिगणः इत्यस्मिन् गणे कति धातवः सन्ति इति प्रश्नः खलु? यदि तत्र त्रयः एव धातवः सन्ति अस्मिन् गणे, तदानीं त्रयाणाम् इति वक्तव्यं नास्ति.
यदि
न यदि तस्मिन् गणे इतोपि अधिकाः दातवः सन्ति चेत् तदानीं ब्रियां त्रयाणाम् इति वक्तव्यम् अथवा त्रयाणाम् इत्युक्ते केषाम् इति प्रश्नः अपि भवितुमर्हति. ब्रियाम् आरभ्य, ब्रियाम् आरभ्य ततः अग्रे ये दातवः उक्ताः इति वयं मन्तुं शक्नुमः. अतः ब्रियादिगणः इति कुत्र अस्ति इति एकवारं द्रष्टव्यं. ब्रियादिगणः अन्तर्गणः इत्यत्र ब्रयादिगणः इति मया न दृश्यते एव.
ब्रियादिगणः तस्मिन् केवलं भ्रू मा हा इति एव धातवः दर्शिताः सन्ति भगिनि.
कुत्र अस्ति ब्रयादिगणः?
अष्टाध्यायी डाट् काम् मध्ये डुभ्रू इति तत्र फिल्टर् कृतवती. व्यू फिल्टर्स् इति अस्ति खलु, तत्र ब्रूयादिगणः अस्ति अन्तर्गणः. तम् एव नोदयामः चेत् प्राप्नुमः.
तत्र कति दातवः सन्ति?
त्रयः एव.
त्रयः एव सन्ति वा?
हा, दुभ्रुयि, माङ्ग्, ओहाङ्ग् इति अत्र तु दर्शितं. त्रयः एव.
हा, त्रयः एव सन्ति चेत् भगिन्याः प्रश्नः किमर्थं त्रयाणाम् इति? त्रयाणाम् इत्येव जहाति. त्रयाणाम् इति मास्तु इति.
त्रयाणां तु पूर्वस्मिन् सूत्रात् अनुवृत्तिः अस्ति, परन्तु किमर्थम् अनुवृत्ति आवश्यकम् इति अपि प्रश्नः अस्ति. पूर्वस्मिन् सूत्रे तु निजात् त्रयाणां गुणः श्लौ इति उक्तं, तत् तस्मात् एव त्रयाणाम् इत्यस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे. परन्तु
डु ब्रिय धारणपोषणयोः माङ् माने ओहाङ्गतौ इत्येते ब्रियादयः जौहातिकाः एव. तर्हि त्रयः एव तस्मिन् गणे, त्रयः धातवः एव तस्मिन् गणे सन्ति चेत् पुनः त्रयाणाम् इति किमर्थं वक्तव्यम् इति. परन्तु सर्वत्र व्याख्यानेषु ब्रियादि त्रयाणाम् अभ्यस्य इकारादेशो भवति श्लौ इति तत्र सर्वत्र उक्तं त्रयाणाम् इति. अत्र वस्तुतः स्पष्टप्रतिपत्तिः भवति खलु, त्रयां त्रयाणाम् इति तत्र स्पष्टप्रतिपत्तिः भवति. इत्युक्ते चक्षित्यादयः षट् इति, तत्रापि षट् इति किमर्थम् इति वक्तव्यं वक्तुं शक्यते खलु.
तत्र तु भेदः अस्ति न भगिनि? तत्र तु भेदः अस्ति, चक्षा
समासभेदः अस्ति, परन्तु षट् इति षट् किमर्थं तस्मिन् गणे सप्त एव दातः सन्ति चेत् चक्षित्यादिभ्यः इति किमपि वक्तुं शक्यते खलु. तत्र किमर्थं षट् इति वक्तव्यं, यतोहि तस्मिन् गणे सप्तदातवः ये सन्ति चेत् तत्र षट् इत्यस्य किम् आवश्यकता इति अपि अस्माभिः चर्चितं पूर्वं. त्रयाणाम् इत्यस्य का आवश्यकता इति
प्रायः भगिनि अहं चिन्तयामि. पूर्वस्मिन् काले सर्वं कण्ठपाठरूपेणैव आसीत् खलु, तर्हि लेखनं किमपि न आसीत्, तर्हि केषां तत्र ग्रहणं भवति इति किञ्चित् क्लेशः भवितुमर्हति इति कृत्वा पाणिनी एतादृशं सङ्ख्या योजितं, तत्र सङ्ख्यया तत्र निर्दिष्टम्
स्पष्टप्रतिपत्त्यर्थमेव खलु.
सत्यम्. इदानीं वयम् अष्टाध्यायी मध्ये त्रयः दातवः सन्ति इति दृष्ट्वा वदामः.
तदेव उक्तं स्पष्टप्रतिपत्त्यर्थमेव त्रयाणाम् इत्युक्ते इतोपि स्पष्टता भवतु इति यत् महोदय वदति. स्पष्टप्रतिपत्त्यर्थमेव, अथवा अन्यथा तत्र ब्रियादिगणे त्रयः एव सन्ति चेत् किमर्थम्? वस्तुतः महोदय धातुपाठः अपि सर्वेषां मनसि आसीत् तदानीं तस्मिन् काले
आसीत् तु, तत्रापि अस्ति चेदपि इदानीं गणनीयं खलु, यावत्पर्यन्तं तत्र गणः अन्तर्गणः अस्ति इति. त्रयः दातवः एव तत्र अन्तर्गणः भवन्ति इति वक्तव्यं भवति. एतत् क्रमे एव अस्ति दातवः, तत्र तेषां ग्रहणं केषां ग्रहणं चेत् त्रयाणां ग्रहणं भवतु इति.
अपि च तत्र अन्य अत्र किम् उक्तमिति चेत् अग्रिमे सूत्रे अपि त्रयाणाम् इत्यस्य अनुवृत्तिः अपेक्षिता इति भाति अग्रिमसूत्रेषु कुत्रचित्. इति कृत्वा अपि इति एकवारं द्रष्टव्यं तत्र अग्रे तत्र त्रयाणाम् इति पदस्य आवश्यकता वर्तते वा इति कृत्वा अत्रापि स्थापितं वा इति अपि चिन्तनीयं भवति. त्रयाणाम् इति पदस्य अन्यत्र कुत्रापि आवश्यकता वर्तते वा इत्युक्ते वस्तुतः तत्र निजां त्रयाणां गुणः इति तु अस्ति. निजां त्रयाणां गुणः तर्हि निजां त्रयाणां गुणः इत्यस्मात् एव तत्र ब्रियामित् इत्यत्र त्रयाणम् इति आगतं खलु. तदनन्तरम् अर्तिपिपर्त्योश्च इत्यत्र त्रयाणम् इत्यस्य आवश्यकता नास्ति. बहुलं छन्दसि इत्यत्रापि त्रयाणाम् इत्यस्य आवश्यकता नास्ति इति भाति. आम् नास्ति तर्हि अग्रे अपि नास्ति. अग्रे अपि नास्ति तर्हि स्पष्टप्रतिपत्त्यर्थमेव, अन्यथा किमपि नास्ति. अस्तु अग्रे गच्छामः. तर्हि इदानीं सूत्रार्थः स्पष्टः अस्ति. तत्र सावित्री भगिनी एकवारं वदति वा तत्र इदानीं किं गा न गा इति स्तुतौ अस्ति. तर्हि मा इति धातुमेव स्वीकृत्य एकवारं वदतु. अस्ति वा भगिनि सावित्री भगिनि? अस्तु भगिनी वक्तुं न शक्नोति. अस्तु तत्र विजया भगिनी वदतु. न श्रूयते सावित्री भगिनी. सावित्री एकक्षणं भगिनी. सावित्री भगिनी वदन्ती अस्ति वा? न किमपि न श्रूयते. पुनः एकवारं बहिः गत्वा आगच्छतु. अस्तु विजया भगिनी. आम्
अत्र माङ् माणे इति अस्ति. एतदेव खलु महोदय? अत्र इदानीमेव दृष्टवन्तः अत्र माङ् इति अस्ति चेत् माणे इति अर्थे आगच्छति. इदानीं मा श्लौ भवति, इत्यनेन श्लौ इत्यनेन द्वित्वं भवति, अतः मा मा इति भवति. अनन्तरं बृङ्यामित् इत्यनेन अभ्यासस्य ह्रस्वः इकार आदेशः भवति, अतः प्रथम
न न भगिनि 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 ब्रियामिति इति विशेष विशिष्ट अभ्यासकार्यम् अस्ति. सामान्य अभ्यासकार्याणि सन्ति खलु, तेषां कार्याणि प्रथमतया करणीयानि.
अत्र प्रथमं तदेव भवति, श्लौ इत्यनेन द्वित्वं भवति, अनन्तरं मा मा इति भवति. इदानीं अलादिशेषः इति कार्यं न करोति खलु महोदय? अत्र ह्रस्वः भवितुम् अर्हति, ह्रस्वः. अतः तत्र मम इति भवति.
सत्यम्. इदानीम्
इदानीमत्र बृङ्यामित् कार्यं न करोति वा? अभ्यासचर्चा इति अपि भवति. एतत् अभ्यासचर्चा इत्यनेन अत्र किमपि कार्यं नास्ति एव, अतः मम एव तिष्ठति अङ्गकार्यं.
मम इति अस्ति इदानीं तत्र ब्रियामित्
कार्यं करोति चेत् तत्र प्रथम मकारस्य स्थाने अभ्यास ह्रस्वः इकार आदेशः भवति, अतः मिमा इति भवति खलु महोदय? अनन्तरम् अत्र अभ्यासचर्चा इत्यनेन तावदेव तत्रैव तिष्ठति.
सत्यं, मीमा इति भवति. हा अपि च बहु सम्यक् भगिनि, धन्यवादः.
धन्यवादः.
तत्र वंशि भगिनी पश्यतु, अत्र ब्रियाम् इति उक्तं, ब्रियाम् इति उक्तं, न तु ब्रियादि. अत्र गणस्य उल्लेखः नास्ति खलु? इत्युक्ते यत्र गणस्य उल्लेखः भवति इदानीं जक्षित्यादयः अथवा भुवादयः इति यद् वदामः तदानीं गणस्य उल्लेखः इति वयं जानीमः. अत्र तु ब्रियाम् इत्यनेन गणस्य ज्ञानं कथं भवति? तत्र
बहुवच अस्तु धातु अपि भवति इति चेत्
ब्रियाम् इति तत्र धातुः ब्रिया इति धातुः अस्ति. तत्र बहुवचनेन किं ज्ञायते, येषां ग्रहणमिति कथं जानीमः?
प्रायः स्पष्टार्थमेव भवितुम् अर्हति यतः तत्र
तदर्थमेव काशिकायां ब्रियादीनां त्रयाणां यद्यपि सूत्रे ब्रियाम् इति सूत्रितं तस्य अर्थः कः ब्रियां त्रयाणाम् इति उक्तं तर्हि तस्य अर्थः कः इति चेत् ब्रयादीनां त्रयाणाम् इति अस्ति आदीनाम् इति तत्र आदिपदं नास्ति केवलं ब्रियाम् इति एव उक्तमस्ति अतः गणस्य उल्लेखः नास्ति तत्र
ब्रिया इति धातुः अपि अस्ति न किल तत्र
ब्रिया इति धातुः एव ब्रिया ब्रियादिगणे प्रथमः धातुः ब्रिया
ओ अस्तु हा क्षम्यतां तत् अस्ति
अस्मिन् गणे प्रथमः धातुः ब्रिया अनन्तरं माङ्ग् ओहाङ्ग् इति त्रयः धातवः परन्तु अत्र आदिपदं नास्ति तत्र सूत्रे केवलं ब्रिया इत्येव उक्तं ब्रियाम् इति बहुवचनान्तरूपम् अस्ति परन्तु ब्रियाम् इत्यनेन ब्रियादिगणः सूचितः इति कथं जानीमः इदानीं त्रयाणाम् इति वयं वदामः चेत् गणस्य तत्र त्रयाणां तत्र गणः इति वयम् अवगन्तुं शक्नुमः खलु
तत् अस्ति तदस्ति तत्तु स्पष्टम् अस्ति परन्तु आवश्यकं वा इति एव मम प्रश्नः आसीत्
न तत्र इदानीम् आदिपदं नास्ति इति मया उच्यते खलु ब्रयादि इति उक्तं चेत् तत् गणस्य उल्लेखः भवति अत्र तु न उक्तम् अन्यत्र पश्यतु भुवा तत्र किं जुहोत्यादिभ्यः अनन्तरं दिवादिभ्यः अतः तत्र किं दिवाम् इति किमर्थं न उक्तम्
अस्तु
तत्र किमर्थं दिवादि इदानीं भवत्याः प्रश्नः त्रयाणाम् इति किमर्थम् इति तत्र किमर्थं न पृष्टवती आदिपदस्य का आवश्यकता इति पृष्टवती न पृष्टवती अत्र ब्रियां ब्रियाम् इत्यत्र तु ओ ब्रियाम् इत्यनेन एव गणस्य उल्लेखः अस्ति अहम् अवगच्छामि ब्रियादिगणः इति अवगच्छामि इति पृच्छति चेत् वदति चेत् तत्र जुहोत्यादिभ्यः इत्यत्र किमर्थं जुहोत्यादिभ्यः इति वक्तव्यम्
परन्तु तत्र सत्यं तस्मात् यत् सूत्रमस्ति निजां त्रयाणां गुणः श्लोकः इत्युक्तं निजां प्रायः तत्र सूत्रस्य रचना भिन्नरीत्या कृता पाणिना
न तत्रापि पश्यतु तानेन एव वयं स्पष्टतया ज्ञातुं शक्नुमः पाणिनेन साक्षात् तत्र निजां त्रयाणां गुणः इति साक्षात् सूत्रितमस्ति तेन वयम् अवगन्तुं शक्नुमः निजाम् इत्यनेन निजादिगणः इति न उल्लेखितः तत्र
अस्तु
तत्र निज् इत्यपि गणः अस्ति खलु तत्र निजां त्रयाणां गुत्रः इत्यत्र किं निजादीनाम् इति अस्ति तत्र निजादीनां तत्र आदिपदं तत्रापि न उक्तम् आदिपदं न उक्तम् अतः त्रयाणाम् इति उक्तं तत्र निजां त्रयाणां गुणः श्लौ इति उक्तं
भिन्नरीत्या
भिन्नरीत्या लिखितमस्ति तत्र गणस्य उल्लेखः नास्ति इति कृत्वा त्रयाणाम् इति उक्त्वा स्पष्टं तत्र स्पष्टतया उक्तम् एवमेव अत्र ब्रियाम् इति एव उक्तं तर्हि तत्र गणस्य एव उल्लेखः इति कथं जानीमः इत्युक्ते ब्रियाम् इति अहं वदामि चेत् इदानीं किं रामाणाम् इति वदामि चेत् तत्र कः अर्थबोधः भवति न न रामाणाम् इति अहं वदामि चेत् तत्र किम् अवगच्छति भवती
बहवः रामाः सन्ति इति अवगन्तुं
हा रामः 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 इति एव अवगच्छति खलु
अस्तु
तत्र ब्रियाम् इति वदामः चेत् तत्र षष्टि बहुवचनम् अस्ति चेत् तत्र किम् अवगन्तुं शक्नुमः ब्रियां ब्रियां ब्रियाम् इति त्रयः ब्रियाः अथवा पञ्च ब्रियाः सन्ति इति एव अवगन्तुं शक्नुमः खलु
तत् अस्ति सत्यं
एवमेव निजाम् इति वदामः चेत् तत्र निज् 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 इति त्रयः इत्येव अवगन्तुं शक्नुमः न तु निज् न तु तत्र अन्यदातवः इदानीं ब्रियाम् इत्यत्र ब्रिय माङ्ग् ओहाङ्ग् इति कथम् अवगन्तुं शक्नुमः ब्रियाम् इति पदेन खलु
भगिनी द्वन्द्वतत्पुरुषसमासः भवति तत्र अन्तिमपदस्य बहुवचनं भवति साधु यदि द्वय अधिकम् अस्ति
द्वन्द्वसमासे बहुवचनं भवति तत्र तत्र तु तत्र किम् इतरेतरद्वन्द्वः खलु लक्ष्मणः
तत्रापि हाङ्ग् च मां च हाङ्ग् च भ्रियां च इति कृत्वा भ्रियाम् इति भवति
न न न न एकशेषः न भवति तत् भवती एकशेषं कर्तुम् इच्छति तदा न तथा न भवति तत्र समानमस्ति चेदेव भवति नो चेत् सूत्रं भवेत् इदानीं ब्रिय ब्रिय च माङ्ग् च ओहाङ्ग् च ब्रियाम् इति नास्ति एकशेषः नास्ति तथा
अस्तु
तथा नास्ति माता च पिता च पितरौ तथा नास्ति अत्र इत्युक्ते एकशेषः इति वयं कर्तुम् इच्छामः चेत् तदर्थं सूत्रं स्यात् नो चेत् न अत्र तु किम् अस्ति सूत्रं किमपि नास्ति अतः ब्रियाम् इत्यनेन ब्रिय माङ्ग् ओहाङ्ग् इति त्रयाणां ग्रहणम् इति नास्ति
अस्तु
अतः एव व्याख्याकारः ब्रियादीनां त्रयाणाम् अभ्यासस्य इति स्पष्टतया उक्तम् अतः ब्रियादीनाम् इति ज्ञानं न भवति ब्रियाम् इति पदेन
साधु
अस्तु अस्तु अग्रे गच्छामः तर्हि इदानीं सावित्री भगिनी अस्ति वा भगिनि
हा धातुः भगिनि
ओ हाक् त्यागे अनुबन्धलोपे हा धातुः परस्मैपदी ततः आरभ्य एकवारं वदतु
ओ अस्तु ओ हाक् त्यागे अनुबन्धलोपे हा धातुः परस्मैपदी हा इति धातुः द्वित्वं श्लौ इत्यनेन हा हा इति भवति तदनन्तरं ह्रस्वः इत्यनेन हः इति भवति तदनन्तरं मित् इत्यनेन स्थाने
पूर्वम् इतोपि सामान्य अभ्यासकार्याणि सन्ति हः तस्मात् पूर्वं
हः कुहोश्चुः न
आमां पूर्वं लिखितमस्ति खलु कुहोश्चुः इत्यनेन
कुहोश्चुः इत्यनेन अभ्यासस्य चर्वर्गस्य आदेशः हि तस्मात् पूर्वं ब्रियां मित् इति भवति भगिनि ब्रियां मित् इति लिखितं खलु हः इत्यस्य हा स्थाने हि इति प्रथमं भवति खलु ब्रियां मित् प्रथमं श्लौ इत्यनेन द्वित्वं हा हा इति भवति तदनन्तरं ह्रस्वः इति अनेन हः इति भवति तदनन्तरं ब्रियां मित् इत्यनेन अभ्यासस्य इकार इ आदेशः भवति हि हा इति भवति तदनन्तरं कुहोश्चुः इत्यनेन हि स्थाने
झकारादेशः वस्तुतः पश्यतु भगिनी क्षम्यतां पश्यतु अत्र यद्यपि अस्माकं करपत्रे एवं प्रदर्शितमस्ति परन्तु वयं जानीमः प्रथमतया सामान्य अभ्यासकार्याणि करणीयानि तत्पश्चात् एव विशेषाभ्यासकार्याणि
अस्तु हा हा इति भवति तदनन्तरं ह्रस्वः इत्यनेन हः इति भवति तदनन्तरं कुहोश्चुः इत्यनेन हः स्थाने झः भवति तदनन्तरम् अभ्यासे चर्चा इत्यनेन जस् स्थाने जश् आदेशः इति जः भवति इदानीं विशिष्ट अभ्यासकार्यम् इति कृत्वा ब्रियां मित् इत्यनेन जः स्थाने जिहा इति भवति अस्तु गा स्तुतौ छन्दसः इत्युक्तौ वेदे प्रयुज्यते न तु लोके अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं गा गा इति गिगा भवति तदनन्तरं गिगा इत्यस्य कुहोश्चुः इत्यनेन जिगा भवति ओ तस्मात् पूर्वम् इकारस्य ब्रियां मित् इत्यनेन जहा स्थाने जिहा भवति पूर्वं यथा उक्तं तथैव अत्रापि प्रथमं गागा तदनन्तरं ह्रस्वः इत्यनेन गगा तदनन्तरं कुहोश्चुः इत्यनेन जगा तदनन्तरं अभ्यासे चर्चा इत्यनेन गगास्थाने जगा तदनन्तरं ब्रूयां मित् इत्यनेन इकारादेशः जिगा इति भवति
समीचीनम्
आम् अग्रे पठामि वा
हा पठतु
गा स्तुतौ परस्मैपदी गा द्वित्वं समानकार्यं बहुलं छन्दसि बहुलं छन्दसि विषये अभ्यासस्य इकारादेशो भवति श्लौ यस्य कस्यापि धातोः स्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः यथा वच् विवक्ति सच् इशक्ति धृ जिघर्ति हृ जिहर्ति इति किं प्रत्ययनिमित्तकम् अङ्गकार्यम् अत्र बहुलं छन्दसि इति वदति यत् बहुलं छन्दसि विषये छन्दस् विषये अलौकिकविषये नास्ति छन्दस् विषये अभ्यासस्य इकारादेशः भवति यदा श्लौ अग्रे भवति श्लू अग्रे भवति अथवा श्लौ परे यस्य कस्यापि धातोः श्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः आम् यथा वच् वच् इति जुहोत्यादिगणे नास्ति परन्तु छन्दसि भवति चेत् एवं भवति इति वा भगिनि
किं वच्छति वच्छति जुहोत्यादिगणे नास्ति सत्यं
यतोहि
वच्छति तद् जुहोत्यादिगणे एव अस्ति वच्छति हलन्तदातुः हलन्तपाठेन पश्यामः
अस्तु अस्तु वच् वच् भवति तदनन्तरं वच् वच् भवति तदनन्तरं वक्ति इति क्रियापदम् इत्युक्ते तिङन्तरूपं तत्र विवक् इति भवति इत्युक्ते वि इत्यस्य बहुलं छन्दसि इत्यनेन इकारादेशः भवति ववच् स्थाने विवच् इति भवति तदनन्तरं तिङ् प्रत्ययः मिलित्वा विवक्ति इति भवति
सत्यं समीचीनं समीचीनं धन्यवादः इदानीं तत्र सच् गृ हृ इति शोभा भगिनी करोति वा
आं भगिनि तत्र अग्रे तत्र गा इति अभवत् खलु इदानीं
न बहुलं छन्दसि इति सूत्रे यथा वच् इति भगिनी उक्तवती इदानीम् अग्रे सच् इति अस्ति तत् करोतु
अस्तु तत्र एकक्षणं भगिनि बहुलं छन्दसि विषये अभ्यासस्य इकारादेशो भवति श्लोक् यस्य कस्यापि धातोः श्लोक् परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः यथा वच् विवक्ति इति वा अस्तु अस्तु इदानीं वच् सच् सच् इति स्वीकुर्मः चेत् तत्र प्रथमं सच् इत्यस्य श्लौ इत्यनेन द्वित्वं भवति सच् सच् इति भवति तदनन्तरं ह्रस्वः इत्यनेन तस्य ह्रस्वः इत्यस्य प्रसक्तिः नास्ति तत्र तदनन्तरं भ्रुवा मित् इत्यनेन स्विच् अभ्यासस्य हस् इकारादेशः भवति अतः
हलादिशेषप्रथमं
हा क्षम्यतां हलादिशेषः इति इत्यनेन तत्र सच् सच् इत्यस्य ससच् इति भवति तदनन्तरम् अभ्यासस्य तत्र भ्रुवमित् इत्यनेन इकारादेशः
छन्दसि बहुलं
क्षम्यताम् अस्तु बहुलं छन्दसि इदानीं तदेव कार्यं तत्र तत्रापि इकारः एव आदेशः भवति यतोहि तत्र इदानीं एतेषां प्रयोगः वेदे एव इति कृत्वा वेदप्रसङ्गे बहुलं छन्दसि इत्यनेन इकारादेशः सिसिच् इति भवति सिसच् इति भवति क्षम्यतां सिसच् इति भवति तदनन्तरं अभ्यासस्थितस्य स्वरस्य इकारादेशः अभवत् तदनन्तरं किम् उक्तं भगिनि क्षम्यताम्
आदेशप्रत्ययो भगिनि सन्धिकार्यं
तत्र तु सीशक्ति इति लटि रूपमस्ति तद् इदानीं वयं त्यजामः पचि अग्रे पश्यामः
किम् अत्र चोहकुः प्रवर्तते वा अत्र
चोहकुः इति वा
आदेशप्रत्ययो भवति साधु
सी सच् इति अस्ति सी सच् आदेशप्रत्ययोः इत्यनेन षत्वं तु भवति एव सी शक् सी सच् सच् योगः इति
इण्कोः इण्कोः परस्य
चोहोकुः चोहोकुः प्रवर्तते
सी सच् सी षच् इति भवति सी षच् इत्यस्य तत् चकारस्य चोहोकुः इत्यनेन ककारः भवति सिषक् इति भवति तदनन्तरं तत्र सिषक् योगः ति सिषक्ति इति क्रियापदं
भगिनि तत्र सच्चित् तत्र सच् इति आदेशः अपि नास्ति प्रत्ययः अपि नास्ति भिन्नसूत्रेण भवति
सच् इति आदेशः अपि नास्ति इत्युक्ते हा तद् तदपि अस्ति सम्यक् तत्र सच् सच् इति धातुः मूले सच् इति नास्ति षच् इति अस्ति अतः आदेशः प्रकारः वस्तुतः तत्र जुहोत्यादिगणीय सच् इति धातुः एव न दृश्यते सच् इति धातुः अस्ति वा जुहोत्यादिगणे तु न दृश्यते तत्र किम् अस्ति रूपं एतत् तु वेदे एव वेदे वेदे अस्ति सच् इति धातुः वेदे अतः मूलरूपं प्रायः षच् इति स्यात् नो चेत् सी शक्ति इति न भवति
भगिनि तत् द्रुयां मित् इति द्रुयां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् स्लौ इति तेषां त्रयाणां धातूनामेव उक्तं परन्तु अत्र यत्किमपि धातुः श्लौ परे भवति अथवा धातुः परे श्लौ भवति यत् वेदे भवति तत्र बहुलं छन्दसि इत्यनेन एवं कार्यं भवति इति वा वज् इति हलन्तधातुः आम् अस्तु अवगतं लट् रूपे अपि विवक्ति इति भवति यतोहि लोके तु वक्ति इति प्रायः भवेत् परन्तु छन्दसि भवति चेत् विवक्ति इति अर्थः समानः
वच् धातुः ज्योत्यादिगणे नास्ति वस्तुतः लोके अदादिगणे एव अस्ति वक्ति इति रूपं यथा भवती उक्तवती सत्यम् अदादिगणीयधातुः वक्ति इति रूपं ज्योत्यादिगणे नास्ति लोके परन्तु केवलं वेदे वच् इति धातुः अत्र अस्ति ज्योत्यादिगणीयधातुः अत्र वच् सिच् इति त्रयः अपि गृ इत्यपि तथैव वा इति द्रष्टव्यं गृ इति तु ज्योत्यादिगणे अस्ति गृधातुः ज्योत्यादिगणे अस्ति गृधातोः जिगर्ति इति रूपमस्ति लोके जिगर्ति इति रूपम् आम् जिगर्ति इति रूपमस्ति अपि च जगर्ति इति अपि रूपम् अस्ति जगर्ति जिगर्ति अपि च अत्र पश्यतु बहुलम् इति पदम् उक्तं खलु बहुलम् इति पदेन सर्वत्र भवति इति नास्ति ज्योत्यादिगणे धातुः अस्ति चेदपि वेदेषु बहुलम् इति पदेन सर्वत्र भवति इति नास्ति यत्र तत्र किम् अन्तिमरूपे आवश्यकं तत्र एव भवति अतः बहुलमिति पदस्य कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति कुत्रचित् नित्यरूपेण भवति एवं रीत्या तत्र अस्माकम् इष्टरूपं प्राप्तुं कुत्रचित् भवति कुत्रचित् न भवति अतः एव बहुलमिति उक्तं न तु विकल्पेन इति न उक्तं विकल्पेन अतः बहुलमित्यनेन विकल्पः अपि स्वीकर्तुं शक्यते अतः जीगर्ति इत्यत्र विकल्पः अस्ति अतः कुत्रचित् इकारादेशः न भवति तत्र तु जगर्ति इत्यपि रूपमस्ति अत्र किं गृधातोः विषये घृ इति महाप्राणघकारः तत्र बहुलं छन्दसि इति उक्तत्वात् बहुलम् इति उक्तत्वात् एकस्मिन् पक्षे ईकारादेशः भवति झिघर्ति इति भवति अन्यस्मिन् पक्षे न भवति अतः झ झघर्ति इत्यपि भवति हृ इति धातुः हृ इति धातुः जुहोति अधिगणे अपि अस्ति हृ धातोः विषये अपि एवमेव रूपद्वयम् अस्ति जिहर्ति जहर्ति बहुलमिति उक्तत्वात् अस्तु शुभभग्नि अत्र गृ धातुः हृ धातुः द्वयोः अपि रूपं साधयतु
आं भगिनि घृ धातुः इदानीम् अस्तु घृ घृ इति श्लौ इत्यनेन द्वित्वं भवति तदनन्तरं तत्र पुनः ह्रस्वस्य प्रसक्तिः नास्ति तदानीं किम् इदानीम् इकारः एव अग्रे
भगिनि
किम्
उरत् घृ अस्ति साधु उरत्
क्षम्यतां घृ इति ऋकारान्तधातुः उरत् इत्यस्य प्रसक्तिः अस्ति घर् तत्र घृ घृ इत्यस्य पूर्वस्य अभ्यासस्य घर् इति रूपं भवति ऋकारस्य अर् आदेशः उरत् इत्यनेन घर् घृ घर् घृ इति भवति घर् घृ इति भवति चेत् तत्र इदानीं ह्रादिशेषः इत्यनेन ऋकारस्य रेफस्य लोपः घ घृ इति भवति घ घृ इति स्थित्यां इदानीम् अभ्यासस्य बहुलं छन्दसि इत्यनेन इकारादेशः
कुहोश्चु सामान्यकारं कुहोश्चु
उरत् अभवत् कुहोश्चुः इत्यनेन घकारस्य स्थाने जकारादेशः भवति वा जकारादेशः तदनन्तरं बहुलं छन्दसि इत्यनेन अस्तु एकक्षणं भगिनि तत्र अस्तु इदानीं कुहोश्चुः अभवत् उरत् अभवत् अभ्यासे चर्चा इत्यनेन तत्र किम् अस्ति चर्त्वं भवति अथवा जस्त्वं भवति तत्र किम् एकक्षणं वदामि
चकारस्य स्थाने जकारः
तत्र खै वर्णः अस्ति चेत् जस्त् चर्त्वं भवति इदानीं किम् अस्ति तत्र जि जकारः खकारः अस्ति अतः
चतुर्थवर्णः अस्ति चेत् तृतीयवर्णः भवति अतः
अल्पप्राणजकारस्त्वं भवति अस्तु इदानीं किं जि घृ इति भवति जि घृ
जगृ जगृ इदानीं बहु
जगृ तत्र तदनन्तरम् इकारादेशः वा अस्तु इदानीं इदानीं तत्र बहुलं छन्दसि इति वदामि वा बहुलं छन्दसि इत्यनेन इकारादेशः जिघृ इति भवति
जिघृ पश्यन्तु अत्र पश्यन्तु अत्र अभ्यासे चर्चा इति सूत्रं त्रिपाद्याम् अस्ति अतः कोऽपि वक्तुं शक्नोति अत्र बहुलं छन्दसि इति प्रथमं स्यात् तदनन्तरमेव अभ्यासचर्चा इति वक्तुं शक्नुमः अतः यथा कथञ्चित् करोतु क्लेशः नास्ति अत्र
अस्तु तत्र अभ्यासे चर्चा इति अष्टाध्याये बहुलं छन्दसि इति सप्तमाध्याये अस्ति जिघृ इदानीं जिघृ योगः तिप् इति यदा भवति तदा जिघृ इदानीं ऋकारान्त अङ्गं भवति अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन ऋकारस्य अर् इति गुणः जिघर्ति इति भवति
सम्यक् समीचीनम् इदानीं तथा एव वंशि भगिनी करोतु
आं भगिनि हृ हृ इति अस्ति हृ 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 धातुः अस्ति हृ हृ इति भवति श्लौ इति सूत्रेण तत्र एकाचो द्वे प्रथमस्य इति अधिकारे तत् श्लौ सूत्रेण इति द्वित्वं भवति हृ हृ इति भवति तस्मात् अनन्तरम् उरत् इति सूत्रं कार्यं करोति ऋकारस्य स्थाने अक्ट् इति आदेशः भवति, तस्मात् अनन्तरम् उरण् रपरः इत्यनेन अर् आदेशः भवति, हर् हृ इति भवति, हर् हृ इति तस्मात् हर् हृ इति भवति, हलादिशेषः इत्यनेन आदिमः हल् तिष्ठति, अन्ये हल् वर्णाः लोपः भवति, अतः तत्र हा हृ इति भवति, हा हृ इत्यस्मात् अनन्तरं कुहोश्चुः इति सूत्रेण हकारस्य स्थाने चवर्गीय वर्णः आदेशः भवति, तत्र बाह्यप्रयत्नम् आश्रित्य विवारः संवारः विवारः नादः घोषः इति बाह्यप्रयत्नात् तत्र चकारस्य चतुर्थवर्णः आदेशः भवति, झकारः आदेशः भवति, झ हृ इति भवति, तस्मात् अनन्तरम् अभ्यासे चर्चा इत्यस्मात् सूत्रात् झल् झल् इति अस्ति न, हल् तृतीयवर्णः झकारः आदेशः भवति, तत्र झकारस्य स्थाने झकारः आदेशः चर् आदेशः भवति, अतः तत्र जह्रु इति भवति, क्षम्यतां जश् आदेशः भवति, अस्तु क्षम्यताम्, अतः जकारः आदेशः भवति, अल्पप्राणचकारः जह्रु इति भवति, तस्मात् अनन्तरं बहुलं छन्दसि इति सूत्रेण अभ्यासस्य ह्रस्व इकारः भवति, अतः तत्र अकारस्य स्थाने इकारः आदेशः भवति, जिह्रु इति अन्तिमरूपं भवति, जिह्रु योगः ति तत्रापि तत्र इक् वर्णः अस्ति, अतः तत्र गुणः भूत्वा जिहर् इति भवति, जिहर् योगः ति तत्र जिहर्ति इति अन्तिमरूपं भवति।
बहु समीचीनं भगिनि, धन्यवादः। इति अत्र स्थगयामः, समयः अतीतः, क्षम्यताम्, अत्र स्थगयामः। प्रश्नाः सन्ति चेत् वदन्तु, नो चेत् विरमामः।
भगिनि एकः निमिषद्वयमस्ति वा? निमिषद्वयं तत्र तत्र पूर्वस्मिन् सूत्रे यत् निजां त्रयाणां गुणः श्लोक इत्यस्मिन् महाभाष्ये उक्तं, यतोहि तत्र आहोक् इति धातुद्वयमस्ति, एकं तु गतौ इति अर्थे अस्ति, एकं तु त्यागे इति अर्थे अस्ति। भृणा इति गणे तत्र गतौ इति एव स्वीकर्तव्यं, त्यागे इति मा स्वीकरोतु इति कारणात् तत्र त्रयाणामेव उक्तम् इति महाभाष्ये उक्तमस्ति। तत्र मम अवगमनं सम्यक् वा इति दृष्ट्वा अग्रिमकक्षायां वदतु।
निजां त्रयाणां गुणः इति सूत्रं वयं पश्यामः चेत् तदानीमपि वयम् अवगच्छामः। अत्र व्याख्यानं कुत्र दृष्टवती? निजां त्रयाणां गुणः इत्यत्र वा?
महाभाष्ये उक्तं, तत्र जहाति इत्यस्य मा भूत् इति कारणे तत्र त्रयाणाम् इति उक्तम् इति उत्तरार्थः अपि आवश्यकम् इति कारणात् तत्र निजां त्रयाणाम् इति उक्तम् अस्मिन् सूत्रे, अपि च भ्रुवामिति सूत्रे अपि तत्र आवश्यकम् इति कारणात् इति उक्तम्।
अत्र पश्यामः भगिनि, अत्र पश्य इदानीं भवती यद् उक्तवती तद् मया सम्यक्तेन अवगतं, पश्यामः।
अस्तु, अग्रिमकक्षायां पश्यामः इति मम अवगमनमस्ति, परन्तु तत् समीचीनं वा न जानामि, परन्तु एकवारं दृष्ट्वा
अग्रिमकक्षायां। विद्याभगिनी, गतवर्गे पूर्वस्मिन् वर्गे भवती समुच्यते इति क्रियापदस्य प्रयोगं कृतवती, कः अर्थः भगिनी समुच्यते क्रियापदस्य? पुनः नाम
समुच्यते यक् प्रत्ययः
नाम दातु अर्थ आदौ अर्थः कः अर्थः भगिनि समुच्यते इति पद क्रिया
समुच्य मीन्स् ब्रिङ्गिङ्ग् देम् टुगेदर्
ओके ओके ब्रिङ्ग् टु नाम दातु वा भगिनि
समुच्छीयते इति नाम दातुः वा इति
दातु अस्ति वा किमपि दातु तत्र अस्ति वा
छीदातु चयने इति भवितुमर्हति
छीदातुः चयने इति तत् सत्यं छीदातुः चयने तत्र समुच्छीयते इत्यत्र सम् उपसर्गपूर्वकः क्षीयते क्षीयते इति यक् प्रत्ययः यक् प्रत्ययः क्षीयते इति यक् प्रत्ययः आत्मनेपदि कर्मणि यक् समु सम् सम् उत्क्षीयते इति यक्
भगिनी अपि गतसप्ताहे ये भवन्तः उक्तवन्तः अनुदित सवर्णस्य अप्रत्ययस्य इत्यं कुत्र अस्ति तत् सूत्रम्
अस्माभिः एकवारं चर्चितमासीत् वर्गे अनुदित् सवर्णस्य च प्रत्ययः इत्यस्य विषये
अष्टाध्यायीम् इति अत्र
सन्धिपाठे भवति
प्रश्नः कः प्रश्नः कः
अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रे सूत्रसङ्ख्या किम् इति पृच्छति वा
आमां
सूत्रसङ्ख्या आदौ प्रथमपाठे एव प्रथमाध्याये एव अस्ति
अस्तु
अनुदित् वदामि 1169
धन्यवादः
भगिनी विशेषः सन्ति कार्याणि इति एतानि एव वा अन्य किमपि अस्ति वा अभ्यासे चर्चा एतानि कार्याणि विशेष हल् सन्ति कार्याणि इति जुहोत्यादिगणे भवन्ति इति उक्तं खलु तद्
एतानि नास्ति न जुहोत्यादिसन्धिकार्याणि भिन्नानि एतत्तु अभ्यासकार्याणि सन्धिकार्याणि भिन्नानि अभ्यासकार्याणि अङ्गकार्याणि
अस्तु विशेष हल् सन्ति कार्याणि इति जुहोत्यादिगणे भवन्ति इति भिन्नकार्याणि
चोः कुः स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इत्यादीनि तत् अष्टमाध्यायस्य द्वितीयपादे सन्ति सूत्राणि
अस्तु अस्तु धन्यवादः भगिनि
अस्तु समीचीनं तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः
धन्यवादः
धन्यवादः